వక్త విలాక్ सहसा महिषासुरेण दृष्ट्वा तु देवि कुपितं कृतुटीकरालम् उद्गच्छ शाङ्कसदृशच्छ वियन्न सद्यः बाणान्युवाच महिषस्तदेव चित्रम् जीव्यते हि कुपितान्तकदर्शनेन ये विप्रसीद परमा भवति भवाय सद्या विनाशयसि को भवति कुलानि विज्ञानमेतदधुरेव यदस्तमेतत् ईदम् बलम् सु विपलम् महिषासुरस्य ये सम्मता जनपदेषु तदानि तेषाम् येषाम् यशांसि न च सीदति धर्मवर्गः सन्न्यास्त एव निवृतात्मजवृत्यताराः येषाम् सदाभ्युदयदा भवति प्रसन्ना धर्म्याणि देवि सकलानि प्रतिदिनम् सुकृते करोति स्वर्गम् प्रयाति च तदा भवति प्रसादात्रये विफलदानविदेवितेन दुर्गे स्मृताहरसि भीतिमशेषजन्तो स्वस्थै स्मृतावदिवदेव शुभान् ददासि हारिणिकात्मधन्या सर्वापकारकरणाय सदा प्रसिद्धा ये विरहते रक्षकसुमैति सुखम् तथैते कुर्वन्तु नाम नरकाय चिराय पापम् सङ्ग्राममृत्युमधिगम्य शिवम् प्रयान्तु कृपासमरनिष्ठुरता च दृष्ट्वा वरदे भुवनत्रयेऽपि श्रीलोकमेतदखिलम् विपुनाशनेन त्वया समरमूर्धनितेऽपि हत्वा ईपादिवम् मृदुगणाभयमप्यमास्तम् नमस्ते सूर्येण पाहि नो देवि पाहि खड्गेन चाम्बिके खण्डास्मरेण नः पाहि दापद्यानिस्मरेण च कार्त्याम् रक्ष प्रकीर्त्याम् च चण्डिके रक्ष दक्षिणे Yeah.